इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। गुजरातस्य चतुर्दिवसीय यात्रायाम् राष्ट्रपतिः द्रौपदी मुर्मू अद्य प्रातः प्रतिष्ठित एकता प्रतिमायाः दर्शनं कृत्वा सरदार वल्लभभाई पटेल वर्याय श्रद्धाकुसुमानि अर्पयिष्यति। सा स्मारकस्य प्रमुखेषु आकर्षकस्थानेषु एकता नगर परिसरेऽपि गमिष्यति। गुजरात यात्रावधौ राष्ट्रपतिः अहमदाबाद गांधीनगरयोः द्वयोः दीक्षांत समारोहयोः भागं भजिष्यति, अपि च कच्छ मण्डलस्य प्रतिष्ठितस्थानानाम् अपि भ्रमणं करिष्यति। बिहारराज्ये ह्यः मन्त्रिमण्डलस्य विस्तारे नीतीशकुमार नेतृत्वेन मन्त्रिमण्डले सप्त नूतन मन्त्रिणः नियुक्ताः। गतसायं पटनानगरस्य राजभवने आयोजिते शपथग्रहण समारोहे राज्यपालः आरिफ मोहम्मद खानः भाजपेति दलस्य सप्त विधायकान् पदगोपनीयतायाः शपथग्रहणं कारितवान्। शपथग्रहणे संजय सरावगी, कृष्ण कुमार मन्तुः, डॉ सुनील कुमारः, मोतीलाल प्रसादः, राजू कुमार सिंहः, विजय कुमार मण्डलः, जीवेश कुमारः च आसन्। एतेन विस्तारेण नीतीश कुमार नेतृत्वेन मन्त्रिमण्डलस्य संख्या मुख्यमन्त्रिणं समेत्य 37 यावत् अभवत्। ततः पूर्वं बिहार भाजपाध्यक्षः दिलीप जायसवालः स्वपक्षस्य एकः जनः एकं पदम् इति नीतिम् अनुसृत्य मन्त्रिमण्डलात् त्यागपत्रं दत्तवान्। प्रयागराजे विश्वस्य बृहत्तमस्य आध्यात्मिकस्य सांस्कृतिकस्य च समागमस्य महाकुम्भस्य समापनं गतरात्रौ महाशिवरात्रिपर्वणः शुभदिवसावसरे अभवत्। पञ्चचत्वारिंशत् दिवसेषु प्रायः 63,660,000,000,000+ श्रद्धालवः तीर्थयात्रिणः च गंगा यमुना सरस्वती नदीनां त्रिवेणी संगमस्य विभिन्न घट्टेषु स्नानम् अकुर्वन्। महाकुम्भे राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्र मोदी, भूटान नरेशः, जिग्मे खेसर नामग्यालः वांगचुकः, विदेश प्रतिनिधयः, विभिन्न राज्यानां राज्यपालाः, मुख्यमन्त्रिणः, केन्द्रीयमन्त्रिणः च संगमक्षेत्रे पवित्रावगाहनं कृतवन्तः। एकीकृत नियन्त्रण केन्द्रात् स्थित्याः निरीक्षणं कुर्वन्तः अधिकारिभिः सह यातायात व्यवस्थायाः अपि सारल्येन पालनम् अभवत्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अपि अस्मिन् अवसरे भक्तान् सन्तसमूहान् कल्पवासिनः च अभिनन्दनं कृतवान्। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः घोषितवान् यत् यूक्रेन देशस्य राष्ट्रपतिः व्लोडिमिर जेलेन्स्की श्वः व्हाइट हाउस इत्यस्य भ्रमणं कृत्वा स्वकीयस्य देशस्य दुर्लभखनिजानां सन्दर्भे सन्धिपत्रं हस्ताक्षरं करिष्यति, तथा च यूक्रेन युद्ध विषयेऽपि सन्धिज्ञापनं भविष्यति। महिला प्रीमियर लीग इत्यस्यां क्रिकेट क्रीडा प्रतिस्पर्धायां गतसायं बेंगलुरुनगरस्य एम चिन्नास्वामी क्रीडांगणे मुंबई इंडियंस दलेन यूपी वॉरियर्स दलम् 8 पराजितम्। अद्य अस्मिन् एव क्रीडांगणे गुजरात जायंट्स दलम् एवं च अन्यदलेन सह क्रीडा भविष्यति। अस्य क्रीडायाः प्रसारणं सायं 7:30 भविष्यति। इति वार्ताः।